न पुण्यम न पापम न सौख्यम न दुःखम न मंत्रो न तीर्थम न वेदा न यज्ञः अहम् भोजनम् नैव भोज्यम् न मोक्ता चिदानन्द रूपा शिवोहम् शिवोहम्। न पुण्यम् न पापम् न सौख्यम् न दुःखम् न मंत्रो न तीर्थम् न वेदा न यज्ञः अहम् भोजनम् नैव भोज्यम् न मोक्ता चिदानन्द रूपा शिवोहम् शिवोहम् चिदानन्द रूपा शिवोहम् शिवोहम् चिदानन्द रूपा शिवोहम् शिवोहम्। नो वर्च्यू और वाइज, नो प्लेजर और पेन, आई नीड नो मंत्रास, नो पिलिग्रिमेज, no scriptures nor rituals. I am not the experienced nor the experience itself. I am the form of consciousness. I am the bliss. I am the eternal Shiva.